आव इन्द्रं कृमी यथा वाजयन्तः शतक्रतुम् मम् हेष्ठम् सिञ्च इन्दुभिः शतम् भाजः शुचीनाम् सहस्रम् भासमाशिराम् एदु निम्नम् नरीयते संयन्मदाय शुष्मिण एनाह्यस्योदरे समुद्रो नव्यचो दधे अजमुते समदसि कपोत इव गर्भधिम् वचस्तच्चिन्न ओहसे स्तोत्रम् राधानाम्बते गिर्वाहो विरजस्यते विभोतिरस्तु सोनृता ऊर्ध्वस्तिष्ठान ऊतजेऽस्मिन्वाजेशतक्रतो समञ्जेष ब्रवावहै योगे योगे तपस्तरम् वाजे वाजे हवामहे सखाज इन्द्रभूतजे आघागमद्यदिश्रवत्सहस्रिणीभिरोदिभिः वाजेभिरुपनोहवम् अनुप्रत्नस्योकसो हुवेतु विप्रतिन्नरम् यन्ते पूर्वम् पिता हुवे तन्त्वा भजम् विश्वभाराशास्महे पुरुहूत सखे वसो जरिद्रभ्याः अस्माकम् शिप्रिणीनाम् सोमपाः सोमपाव्नाम् सखे वज्रिन् सखीनाम् तथा तदस्तु सोमपाः सखे वज्रिन् तथा कृणो यथा त उष्मसेष्टये रेवतेर्नः सधमाद इन्द्रे सन्तु विवाजाः क्षुमन्तो याभिर्मदेम आघत्वा पान्त्मनाप्तस्तोतृभ्यो धृष्णबिजानः रुडो रक्षन्न चक्रियोः आयद्वशतक्रतवाकामञ्जरितृणाम् ऋणो रक्षन्दशचीभिः शश्वदिन्द्रः पोपृथद्भ्यर्तिगाजनानदद्भिः शाश्वसद्भ्यर्धनानि स ना हिरण्यरथम् दंसना वान्सनः सनिता सनजे सनो दात् आश्विनावश्वावत्येषा जातम् शवीरजा गोमद्दस्रा हिरण्यवत समानयो जनो हि वाम् रथो दस्रावमत्यः समुद्रे अश्विने यते न्या अग्भ्यस्य बोर्धनचक्रम् रथस्य ये मथुः परिद्यामञ्जदीयते कस्त उषः कथ प्रिजे भुजे मर्तो अमर्त्ये कन्नक्षसे विभावरे वयम् हिते अमन्मह्यान्तादापराकात् अश्वेन चित्रे अरुषि त्वन्त्येभिरागहि वाजेभिर्द्वहितर्दिवः अस्मे रजिन्निधारय